समस्तं वा ऐश्वं यः पठेद्दिक्तत्परः स सर्वदुष्करं तीर्थवा लभते परमागतिं समस्तं वा ऐश्वं यः पठेद्दिक्तत्परः स सर्वदुष्करं तीर्थवा लभते परमागतिं समस्तं वा ऐश्वं यः पठेद्दिक्तत्परः स सर्वदुष्करं तीर्थवा लभते परमागतिं समस्तं वा ऐश्वं यः पठेद्दिक्तत्परः स सर्वदुष्करं तीर्थवा लभते परमागतिं समस्तं वा ऐश्वं यः पठेद्दिक्तत्परः स सर्वदुष्करं तीर्थवा लभते परमागतिं समस्तं वा ऐश्वं यः पठेद्दिक्तत्परः स सर्वदुष्करं तीर्थवा लभते परमागतिं।